चतुर्दश मंत्र का शांकर भाष्य। संभूतिं च विनाशं च यस्तद्वेदो भयं सह विनाशोह धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेन उच्यते विनाश इति। तेन तदुपासनेनैव ऐश्वर्यं धर्मकामादिदोषजातं च मृत्युं तीर्त्वा हिरण्यगर्भ्योपासनेन हियणिमादिप्राप्तिः फलं तेनैवश्यादिमृत्युम् अतीत्य असंभूत्या अव्याकृतोपासनया अमृतं प्रकृतिलयलक्षणम् अश्नुते। संभूतिं च विनाशं चेत्यत्रावरणलोपेन निर्देशो द्रष्टव्यः प्रकृतिलयफलं श्रुत्यनरोधात्।